एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। प्रधानमन्त्री पुष्पकमल दाहाल प्रचण्ड भाषते हुतात्म गंगालाल हृदय केन्द्रम शैक्षिक प्रतिष्ठानस्य रूपेण विकासयिष्यति। काष्ठमण्डप स्थितस्य हुतात्म गंगालाल राष्ट्रिय हृदय केन्द्रस्य सप्तविंश वार्षिकोत्सवस्य कार्यक्रमे ह्य प्रधानमन्त्री प्रचण्ड केन्द्रम शैक्षिक प्रतिष्ठानस्य रूपेण विकसयितुं सर्वकार प्रतिबद्धोस्तीति अवोचत। असौ अकथयत् गंगालाल हृदय केन्द्रम हृदय रोगस्य उपचाराय नेपाली जनताया आशा विश्वासयोः केन्द्रस्थलं वर्तते। प्रधानमन्त्री प्रचण्ड मौलिकाधिकाराणां क्रियान्वयनस्य प्रयोजनाय विधिनां निर्माणस्य अवशिष्टत्वात् संविधानस्य परिकल्पनाया अनुसारेण सर्वकार नवीनानाम् अधिनियमानां यथाशीघ्रं संसदि प्रस्तुतेः प्रक्रियायां वर्तते इति अज्ञापयत्। प्रधानमन्त्री प्रचण्ड प्रावोचत् प्रदेशेषु विशेष स्वास्थ्य क्षेत्रेण सह प्रदेश चिकित्सालयान् निर्माय हृदय रोगस्य शाखाश्च स्थापयिष्यन्ते। प्रधानमन्त्री प्रचण्ड आत्मना समाभूय पूर्ण परिस्थितौ प्रधानमन्त्रिणे नियुक्ता इति स्पष्टीकुर्वन् शिक्षा स्वास्थ्य वृत्त्युपार्जन वैदेशिक वृत्त्युपार्जन विकास समृद्धिनां क्षेत्रेषु कतिचित् नवीन कार्याणां सम्पादनाय प्रतिबद्धतां च अभिव्यनक। प्रधानमन्त्री पुष्पकमल दाहाल प्रचण्ड कथयति वर्तमान सर्वकार एकल महिलानां याचना समस्याश्च सम्बोधयति। मानवाधिकारस्य कृते महिला समूहेन ह्य काष्ठमण्डपे आयोजिते कार्यक्रमे प्रधानमन्त्री प्रचण्ड अवोचत् एकल महिलानाम् अधिकाराणाम् पक्षे उत्थितानाम् समस्यानाम् विमर्शनस्य माध्यमेन सम्बोधनाय प्रयत्यते। महिलाधिकाराणाम् कृते नेपाले महद् बलिदानम् विहितमिति चर्चयन् प्रधानमन्त्री प्रचण्ड सहस्रशो महिलाभिः मुक्तये परिवर्तनाय च विहितस्य संघर्षस्य कारणेन समाजः राजनीतिश्च वर्तमानावस्थाम् प्राप्तेस्तः इति प्रत्यपादयत्। असौ अगदत् महिलानाम् संघर्षस्य कारणेन सम्प्रति राज्यस्य सर्वेषु अंगेषु प्रतिशतम् 33% महिलानाम् सहभागिता सुनिश्चिता वर्तते। प्रधानमन्त्रिणः पुष्पकमल दाहाल प्रचण्डस्य नेकपा एमाले दलस्य अध्यक्षस्य केपी शर्मा ओलीनश्च मध्ये पश्चात्तन राजनैतिक घटनाक्रमस्य सर्वकारस्य गतिविधिनाञ्च विषये विमृष्टमस्ति। बालुवाटार वर्तिनी प्रधानमन्त्री निवासे ह्य सम्पन्ने मेलने पश्चात्तन राजनैतिक घटनाक्रमादिषु सामयिक विषयेषु विमृष्टमिति प्रधानमन्त्रिणा संचार संयोजक सूर्य किरण शर्मा अज्ञापयत। मेलनस्य क्रमे नागरिकताया विवादे सर्वोच्च न्यायालयेन गत शुक्रवासरे मन्त्रिण सांसद पदस्य च निरसनत्वेन प्रदत्तादेशाय राष्ट्रिय स्वतन्त्र दलस्य सभापतये रवि लामिछाने इत्यस्मै गृहमन्त्रिण दायित्वं देयं न वेति विषयेऽपि विमृष्टमासीत्। नेकपा माओवादी केन्द्रस्य अध्यक्षस्य दाहालस्य नेतृत्वस्य सर्वकारे लामिछाने गत पौष मासस्य एकादश दिवसे उप प्रधान गृहमन्त्री पदे नियुक्त आसीत्। राष्ट्रिय स्वतन्त्र दलस्य सभापति पदे रवि लामिछाने पुनः प्रचितो वर्तते। काष्ठमण्डपस्य वसुन्धरा वर्तिनी दलस्य केन्द्रीय कार्यालये ह्य उपविष्टेन केन्द्रीय समितेः उपवेशेन सर्वसम्मत्या लामिछाने पुनः सभापति पदे प्रचितोऽस्ति। काष्ठमण्डप जनपद प्रशासन कार्यालयात् ह्य नेपाली नागरिकताया पुनः प्राप्तेः पश्चात् उपविष्टेन दलस्य केन्द्रीय समितेः उपवेशेन लामिछाने पुनः सभापति पदे प्रचितो वर्तते। लामिछाने इत्यनेन अमेरिका देशीया नागरिकता त्यक्ता सत्यपि नेपाली नागरिकताया पुनः प्राप्तेः अभावात् सर्वोच्च न्यायालयेन सांसद पदस्य निरसनत्वेन आदेश प्रदानानन्तरं लामिछाने दलस्य सभापति पदात् मुक्तः आसीत्। हुतात्म सप्ताहस्य अन्तिम दिवसे अद्य ज्ञाता ज्ञातान् हुतात्मनः प्रति भावपूर्ण श्रद्धाञ्जलिं समर्प्य विशेष कार्यक्रमैः हुतात्म दिवसः समायोज्यमानो वर्तते। प्रजातन्त्रस्य स्थापनायां पुनस्थापनायां विभिन्नेषु कालखण्डेषु सम्पन्नेषु स्वतन्त्रतायाः आन्दोलनेषु च कृतजीवनोत्सर्गाणां हुतात्मनां स्मृतौ विविधान् कार्यक्रमान् आयोज्य आराष्टम दिवसोऽयं समाद्रियते। एतदवसरे सन्देशं ददति राष्ट्रपतिः विद्यादेवी भण्डारी नागरिक स्वतन्त्रतायै लोकतन्त्रस्य स्थापनायै राष्ट्रियतायाः सुरक्षार्थं च स्वस्य अमूल्य जीवनस्य उत्सर्गिणः हुतात्मनः शुक्रराज शास्त्री धर्म भक्त माथेमा दशरथ चन्द गंगालाल श्रेष्ठ प्रवृत्तिन् ज्ञाता ज्ञातान् हुतात्मनः प्रति श्रद्धाञ्जलिम् अर्पयति। राष्ट्रपतिना भण्डारिणा सन्देशे हुतात्म दिवसोयम् देश जनतयोः कृते प्राणाहुतिम् दत्तवताम् हताम् हुतात्मनाम् विशेष सम्मानस्य दिवसोस्तीति उल्लिखितम् वर्तते। उपराष्ट्रपतिना नन्दबहादुर पुन इत्यनेन प्रदत्ते सन्देशे प्रजातन्त्र लोकतन्त्र संघीय लोकतान्त्रिक गणतन्त्र प्रवृत्तीनाम् उपलब्धीनाम् प्राप्तेः मुख्य श्रेयः हुतात्मनः प्रति लक्षितम् भवतीति उल्लिखितम् वर्तते। अनेन पारिवारिक राणा शासनस्य विरोधिनी आन्दोलने तदनुवर्तिनीषु विपुलासु राजनीतिक क्रान्तिषु संघर्षेषु च वीत प्राणोत्सर्गान् सम्पूर्ण हुतात्मनः प्रति भावपूर्ण श्रद्धाञ्जलिः अर्पितोऽस्ति। प्रधानमन्त्री पुष्पकमला दाहाल प्रचण्डः स्वस्य शुभकामना सन्देशे हुतात्मनाम् स्वप्नस्य पूरणाय सर्वै ऐक्यबद्धतया अग्रे वर्धितुम् बलम् ददाति। समाह्वयपूर्णायाम् परिस्थितौ संघटितः नवीन सर्वकारः सामाजिक न्यायस्य सुशासनस्य समृद्धेश्च लक्षणा अग्रे वर्धितुम् दृढसंकल्पोऽस्तीति उल्लिखन् असौ हुतात्मनाम् स्वप्नम् पूरयितुम् आह्वयति। प्रधानमन्त्रिणा दाहालेन सन्देशे संघीय लोकतान्त्रिक गणतन्त्रम् संस्थागतीकर्तुम् नवीन संविधानस्य क्रियान्वयनस्य माध्यमेन देशम् समृद्धम् समुन्नतम् च विधातुम् च हुतात्मनाम् स्वप्नः योगदानम् च सदैव प्रेरणादायिनी भवता इति विश्वासः व्यक्तो वर्तते। नेपाली कांग्रेस दलस्य सभापतिः पूर्व प्रधानमन्त्री च शेरबहादुर देउवा एतदवसरे प्रदत्ते सन्देशे देश लोकतन्त्र योः हितस्य रक्षायै स्वल्पतरान् मतभेदान् विस्मृत्य हुतात्मनाम् स्वप्नस्य व्यवहारे रूपान्तरकारिणे संकल्पनाय आह्वयति। सभापतिना देवाभिधेन सन्देशे केवलम् समानाधिकारात् अवसरात् न्यायात् सुदृढात् सबलाच्च लोकतन्त्राच्चैव नेपालः सुन्दरे शान्ते समुन्नते च राष्ट्रे परिणतो भविष्यतीति परिकल्पनया विश्वासेन च देशभक्तैः वीर सुपुत्रैः आत्मनाम् सहर्षम् उत्सर्गो विहित इत्युल्लिखितम् वर्तते। एवमेव गण्डकी प्रदेशस्य प्रदेश प्रमुख पृथ्वीमान गुरूङ स्वस्य सन्देशे हुतात्मनाम् बलिदानेन नेपालः स्वतन्त्रम् सार्वभौमम् अखण्डम् स्वाधीनम् स्वाभिमानी च राष्ट्रम् विनिर्मितम् इति उल्लिखति। संयुक्त राज्य अमेरिका देशस्य राजनीतिक विषय सम्बद्ध उपविदेश मन्त्री भिक्टोरिया नुल्याण्ड ह्य काष्ठमण्डपम् प्राप्ता वर्तते। द्विदिवसीय नेपाल भ्रमणस्य क्रमे असौ उच्चस्तरीय राजनैतिक मेलवार्ताम् करोतीति नेपालस्थ अमेरिका देशीय राजदूतावासो ज्ञापयति। स्वास्थ्य जनसंख्या मन्त्री पद्मगिरी कथयति स्वास्थ्य परिचारिकाभ्य न्यून पारिश्रमिक प्रदायिकानाम् स्वास्थ्य संस्थानाम् नवीकरणम् न विधीयते। नेपाल स्वास्थ्य परिचारिका संघस्य एकषष्टितम वार्षिकोत्सवस्य अवसरे ह्य काष्ठमण्डपे आयोजिते कार्यक्रमे स्वास्थ्य मन्त्री गिरी स्वास्थ्य परिचारिकानाम् वेतनम् अत्यन्तम् न्यूनमस्तीति विषय श्रूयमाणोऽस्तीत्यतः रुग्णानाम् सेवायाम् अहोरात्र संलग्नानाम् स्वास्थ्य परिचारिकानाम् सेवासौविध्यानाम् अभिवृद्धये भूमिका निरूह्यते इत्यवोचत। मन्त्री गिरी श्रम शोषिकाः स्वास्थ्य संस्थाः अनुगमनम् विधाय दण्डै सन्ते इत्यपि प्रत्यादिशत्। सार्वजनिक क्रयणानुगमन कार्यालयेन विभिन्नाः द्वादश संस्थाः कलंक सूच्याम् संस्थापिताः सन्ति। प्राप्त दायित्वस्य यथासमयम् अपूरिकाः द्वादश संस्थाः कार्यालयेन सूचनाम् प्रकाश्य विभिन्न निकायानाम् परामर्शनेन निर्माण व्यवसायिनः आपूर्तिकर्तारश्च वर्षतः त्रिवर्षावधिम् यावत् कलंक सूच्याम् संस्थापिताः सन्तीति ज्ञापितम् वर्तते। कलंक सूच्याम् स्थापिताभिः संस्थाभिः धारितावधौ सार्वजनिक निकायानाम् कस्यचिदपि वस्तुनः क्रयणे सहभागिताम् दर्शयितुम् न शक्यते। नेपाली कांग्रेस दलेन गत मार्ग शीर्ष मासस्य चतुर्थे दिवसे सम्पन्ने प्रतिनिधि सभाया प्रदेश सभानाम् च सदस्यानाम् निर्वाचने दलस्य प्रत्याशिनाम् विरूद्धे अन्तर्घातम् विधाय असहयोग कर्तृणाम् जनानाम् विरूद्धे निवेदनम् दातुम् माघ मासान्तम् यावत् समय वर्धापितोऽस्ति। दलस्य स्थानीय निकायन एवं विधानम् निवेदनानाम् सम्बन्धे निर्णयम् विधाय केन्द्रम् प्रेषणाय निर्धारितस्य समयस्य अद्य समाप्ते पश्चात् एतत् समयम् वर्धाप्य माघ मासान्तम् यावत् समय निर्धारित स्थिति नेपाली कांग्रेस केन्द्रीय अनुशासन समित्या ज्ञापितमस्ति इति समाचाराः।